अथ सूर्य अष्टकम् आदिदेवानमस्तुभ्यम् प्रसीद मम भास्कर दिवाकरा नमस्तुभ्यम् प्रभाकरा नमस्तुते सप्तस्वरदा मरुधम् प्रचंदम् कश्यपद्मजम् श्वेतपद्माधरम् दीवम् तम् सूर्य प्रणामम्यहम् लोहितम् रथमरुधम् सर्वलोकापितामहम् महापापहरम् देवम् तम् सूर्यम् प्रणामम्यहम् त्रैगुण्यम् च महाशूरम् ब्रह्म विष्णुमहीवरम् महापापहरम् देवम् तं सूर्यम् प्रणामम्यहम् ब्रह्मिथं तीजपूजं च वायुराकशमेव च प्रभुस्थवं सर्वलोकानां तं सूर्यं प्रणामम्यहम् बन्धुकपुष्पशाङ्काशं हलाकुन्दलाभूषितम् इकाचक्राधरं देवम् तं सूर्यं प्रणामम्यहम् तं सूर्यं जगत्कर्तरम् महातेजं प्रदीपनं महापापहरं देवम् तं सूर्यं प्रणामम्यहम् तं सूर्यं जगाथं नाथं घनविघ्नमोक्षदं महापापहरं देवं तं सूर्यं प्रणाम्यहं तं सूर्यं प्रणाम्यहम् तं सूर्यं प्रणाम्यहम्।